नमस्सर्वेभ्यः अद्य विभक्तिवर्गे पञ्चदशः पाठः एप्रिल् मासस्य द्वितीयः दिनाङ्कः मङ्गलश्लोकाभ्याम् आरम्भं कुर्मः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो इट्स् बीन् लाङ्ग् ब्रेक् सिन्स् वी हेड् द लास्ट् क्लास् अन्फार्चुनेट्लि सो वी विल् डू अ क्विक् रीकेप् आफ् वाट् वी हेव् डन् सिन्स् द बिगिनिङ्ग् आफ् दिस् कोर्स् and then move on to what we are doing, which is Chaturthi Vibhakti. There is just a little more of Chaturthi Vibhakti left. Tatah Purvam Prarambhatah Kinchit Punaravartanam Abhyasasya Api Punaravartanam Kritva Agre Saramah Vibhakti Iti Vargasya Shirshakam Ka Nama Vibhakti संस्कृते पदं द्विविधं भवति सुबन्तं तिङन्तं चेति तत्र सुबन्तम् अथवा नामपदम् इति यद्भवति तत्र प्रकृतिः अथवा मूलरूपं प्रातिपदिकम् इत्युच्यते एतस्मात् प्रातिपदिकात् भिन्नाः प्रत्ययाः भिन्नेषु अर्थेषु योज्यन्ते एतेषां प्रत्ययानामेव विभक्तिः इति नाम अस्तः ते सुप् इति प्रत्ययः अत एव तदन्तस्य शब्दस्य सुबन्तम् इति नाम एते एकविंशतिः 21 प्रत्ययाः सुप् प्रत्ययाः ते एव विभक्तिप्रत्ययाः ते एकविंशतिः प्रत्ययाः सप्तधा विभक्ताः दे आर् ग्रूप्ड् इन् टु 7 groups of 3 each. These 7 are what we refer to by the term Vibhakti. Prathama, Jitiya, Tritiya, Chaturthi, Panchami, Shashti, Saptami, Ityetaha, Sapta, Vibhaktayaha, Prati Vibhakti, Trayaha, Pratyayaha, Ekavachanam, Dvivachanam, Bahuvachanam, Iti, Trayaha, Pratyayaha, Tenasaha, Sambodhana, Prathama, Iti, काचिद् विभक्तिः प्रथमा विभक्तेः एव भेदः एतेषां प्रत्ययानां योजनेन एवं कति इति दृष्टं सप्त विभक्तयः एतेषां विभक्तिप्रत्ययानां योजनेन शब्दरूपाणि सिद्ध्यन्ति कुत्र एतानि शब्दरूपाणि कस्मिन् अर्थे प्रयोक्तव्यानि इति अवगन्तुमेव अयं वर्गः प्रयतते विभक्तिः काः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी इति सप्त विभक्तयः किमर्थम् एताः विभक्तयः किं किमर्थं द्योतयन्ति इति दृष्टं विभक्तिभिः प्रायेण चतुर्धा अर्थबोधनं भवति अथवा चतुर्धा अर्थं बोधयितुं विभक्तीनां प्रयोगः भवति सामान्यतः वस्तुनिर्देशार्थं सः वृक्षः एषः बालः एतत् फलम् इत्यादि वस्तुनिर्देशार्थं विभक्तिः उपयुज्यते क्रियया सह सम्बन्धं द्योतयितुं विभक्तेः उपयोगः भवति चित्रं पश्यति ಅಥವಾ ಚಿತ್ರಂ ಲಿಖತಿ, ಬಾಲೇನ ಲಿಖ್ಯತೆ, ಬಾಲಾಯ ದದಾತಿ ಇತ್ಯಾದಿಷು ಕ್ರಿಯೆಯ ಸಹ ಸಂಬಂಧಂ ದ್ಯೋತಯಿತುಂ ವಿಭಕ್ತಿ ಯೋಜ್ಯತೆ. ಅನ್ಯೇನ ಪದಾರ್ಥೇನ ಸಂಬಂಧಂ ದ್ಯೋತಯಿತುಂ ಅಪಿ ವಿಭಕ್ತಿ ಯೋಜ್ಯತೆ. ಮಮ ಪುಸ್ತಕಂ, ಅಹಂ ಇತಿ ಯಃ ಪದಾರ್ಥಃ, ಪುಸ್ತಕಂ ಇತಿ ಚ ಯಃ ಪದಾರ್ಥಃ, ತಯೋರ್ಮಧ್ಯೆ ವಿದ್ಯಮಾನಃ ಸಂಬಂಧಃ ಸ್ವಸ್ವಾಮಿ ಭಾವಃ, ದ ರಿಲೇಷನ್ ಆಫ್ ಓನರ್ಶಿಪ್ ಬಿಟ್ವೀನ್ ಮೀ ಅಂಡ್ ದ ಬುಕ್. ಸೊ ಟು ಡಿನೋಟ್ ದಟ್ ವಿ ಯೂಸ್ ದ ವಿಭಕ್ತಿ ಆನ್ ಮಮ, ಷಷ್ಠಿ ವಿಭಕ್ತಿ. ಅನ್ಯೇನ ಪದೇನ ಸಂಬಂಧಂ ಅಥವಾ ಅನ್ವಯಂ ದ್ಯೋತಯಿತುಂ, ಟು ಇಂಡಿಕೇಟ್ ದ ಪ್ರೆಸೆನ್ಸ್ ಆಫ್ ಅ ಪದ, ನಾಟ್ ಅ ಪದಾರ್ಥ. Remember, there is always a difference. Padam is the word. Padartha is the object. Whatever is indicated by the word. Padasya artha, padartha. So, padena saha sambandham yotaitum. Vishishtam kinchit padam asti, tena saha anvayam praapnoti, ayam idam padam iti yotaitum. Vedha gurave namaha. Namaha iti padam asti, atayeva chaturthi. Ramena saha. ಸಹ ಇತ್ಯವ್ಯಯಸ್ಯ ಅಥವಾ ತದರ್ಥಸ್ಯ ಸತ್ತಾಂ ದ್ಯೋತಯಿತುಂ ತೃತೀಯ ವಿಭಕ್ತಿ. ಏವಂ ವಿಭಕ್ತಯಃ ಚತುರ್ಧಾ ಉಪಯುಜ್ಯಂತೆ. ಅಸ್ಮಾಭಿಃ ಪ್ರಥಮ ದ್ವಿತೀಯ ತೃತೀಯ ಇತಿ ತಿಸ್ರಃ ವಿಭಕ್ತಯಃ ಅಧೀತಃ. ಪ್ರಥಮ ವಿಭಕ್ತಿಃ ವಸ್ತುನಿರ್ದೇಶೇ ಉಪಯುಜ್ಯತೆ, ಯಥಾ ಸಹ ವೃಕ್ಷಃ, ಏಷಃ ಬಾಲಃ. ಅತ್ರ ತಚ್ಛಬ್ದಾದ್ ತಥಾ ವೃಕ್ಷಶಬ್ದಾದ್ ಉಭಯತ್ರ ಪ್ರಥಮಾ ವಿಭಕ್ತಿಃ ಅಸ್ತಿ. ಸಹ ವೃಕ್ಷಃ ಅಸ್ತಿ, ವಸ್ತುತಃ ಅತ್ರಾಪಿ ಅಸ್ತಿ ಇತಿ ಕ್ರಿಯಾಪದಸ್ಯ ಅಧ್ಯಾಹಾರಃ ಕ್ರಿಯತೆ, ಸತ್ತಾ ಮಾತ್ರಂ ಬೋಧಯತಿ. ಏವಂ ಏಷಃ ಬಾಲಃ ಕರ್ತಾರಂ ಬೋಧಯತಿ, ಬಾಲಃ ಪಠತಿ, ಸೀತಾ ಗಾಯತಿ. ಸೊ ಬಾಲಃ ಪಠನಕ್ರಿಯಾಯಾಃ ಕರ್ತಾ, ಸೀತಾ ಗಾನಕ್ರಿಯಾಯಾಃ ಕರ್ತ್ರಿ. ಎತತ್ ಸ್ಮರ್ತವ್ಯಂ, ವ್ಯಾಕರಣದೃಷ್ಟ್ಯಾ ಸಹ ವೃಕ್ಷಃ ಇತ್ಯಸ್ಯ ಬಾಲಃ ಇತ್ಯತ್ರ ಯಾ ಪ್ರಥಮಾ ವಿಭಕ್ತಿಃ ತತ್ರ ಭೇದಃ ನಾಸ್ತಿ. ಸೊ ಅತ್ರಾಪಿ ಸಹ ವೃಕ್ಷಃ ಅಸ್ತಿ ಇತಿ ಸತ್ತಾಕ್ರಿಯಾಯಾಂ ವೃಕ್ಷಃ ಕರ್ತಾ, ಕರ್ತುಃ ಉಕ್ತತ್ವಾತ್ ಪ್ರಥಮ. ಸೊ ಟೆಕ್ನಿಕಲಿ ಅಕಾರ್ಡಿಂಗ್ ಟು ವ್ಯಾಕರಣ ದೀಸ್ ಟು ಯೂಸೇಜಸ್ ಡು ನಾಟ್ ಚೇಂಜ್. So I have just split it only based on the meaning. Here we are not in saha vrikshaha, we are not trying to indicate the vriksha as the agent to any particular kriya other than just existing. So it is just an indication of that object. Whereas here there is a specific reference to a kriya. Okay, so this is just based on the meaning and not actually they are both the same. Okay. Karmani. ಕರ್ಮವಾಚಕಾದಪಿ ಪ್ರಥಮ ವಿಭಕ್ತಿ ಭವತಿ. ಕರ್ಮ ಪ್ರತ್ಯಯಾನಾಂ ಯೋಗೇ ಪಾಠಃ ಪಠನೀಯಃ, ಬಾಲಃ ಪಾಠಂ ಪಠತಿ. ಪಾಠಃ ಕರ್ಮ ಪಠನಕ್ರಿಯಾಯಾಂ, ಬಾಲೇನ ಪಾಠಃ ಪಠನೀಯಃ. ತತ್ರ ಪಾಠಃ ಇತಿ ಕರ್ಮವಾಚಕಾದಪಿ ಪ್ರಥಮ ಭವತಿ. ಏವಂ ಶಾಲಾ ಗಂತವ್ಯಾ ಇತ್ಯಾದಿಷು ಅನಿಯರ್ ತವ್ಯ ಕ್ತ ಇತ್ಯಾದೀನಾಂ ಪ್ರತ್ಯಯಾನಾಂ ಯೋಗೇ ಕರ್ಮವಾಚಕಾತ್ ಪ್ರಥಮಾ ವಿಭಕ್ತಿಃ ಭವತಿ. ಏವಂ ತ್ರಿಧಾ ಪ್ರಥಮಾ ವಿಭಕ್ತೇಃ ಪ್ರಯೋಗಃ ದೃಶ್ಯತೆ. ಸಂಬೋಧನ ಪ್ರಥಮಾ ವಿಭಕ್ತಿಸ್ತು ಸಂಬೋಧನೆ ಉಪಯುಜ್ಯತೆ. ದ್ವಿತೀಯಾ ವಿಭಕ್ತಿಃ ಕರ್ಮವಾಚಕ ದ್ವಿತೀಯ, ಪಾಠಂ ಪಠತಿ, ಗೃಹಂ ಗಚ್ಚತಿ ಇತ್ಯಾದಿಷು ಕರ್ಮವಾಚಕಾತ್ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ಭವತಿ. ಕೇಚನ ಧಾತವಃ ದ್ವಿಕರ್ಮಕಃ ಇತಿ ಉಚ್ಯಂತೆ, ತತ್ರ ಕರ್ಮದ್ವಯಸ್ಯ ಸತ್ತಾ ಭವತಿ. ಟು ಡಿಫರೆಂಟ್ ಕರ್ಮಸ್ ರಾದರ್ ದನ್ ದ ಸೇಮ್. ಸೇ ಇಫ್ ಯು ಆರ್ ಸೇಯಿಂಗ್ ಕಠಿಣಂ ಪಾಠಂ ಪಠತಿ, ಹಿ ರೀಡ್ಸ್ ಎ ಡಿಫಿಕಲ್ಟ್ ಲೆಸನ್, ದೇರ್ ಇಟ್ ಇಸ್ ನಾಟ್ ದ್ವಿಕರ್ಮಕ ಬಿಕಾಸ್ ದ ಆಬ್ಜೆಕ್ಟ್ ವಿಚ್ ಇಸ್ ಇಂಡಿಕೇಟೆಡ್ ಬೈ ಕಠಿಣ is the same as the object indicated by patha. It is just visheshana visheshya bhava. So you can add 100 such adjectives, but finally the object will still be one. There is only one visheshya Okay, so even if you say something like Sundaram Gruham Gacchati or Sundaram Vishalam Gruham Gacchati, they are not to be treated as Dvikarmakas. The Karma Pada, the object, is still one. But in cases like Gurum Prashnam Prachati, the Padartha of Guru is different and the Padartha of Prashna is different. So there are two different objects which are the karma for this action. Gurum Prashnam Prachati, Syutam Shalam Nayati. So Syutaha iti Bhinnah Padarthaha, Shala iti Bhinnah Padarthaha. Ataha Dvi Karmakaha. Kechana dhatavaha prayena prichyati vadati prarthayati nayati ityadayaha kechana dhatavaha. So it is a limited enumerated set of dhatus which function as dvikarmakas. Tataha upapada dvitiya api adhita yatra padasya vishishtasya padasya anvayam bodhayitum dvitiya vibhaktihi upayujyate yatha Gramam paritaha vanam asti. Tatra gramasya sarveshu diksh, sarvasu dikshu ityartha sarveshu bhageshu. Tatra paritaha iti shabdasya sattvat dvitiya vibhaktihi asti. Gramam paritaha vanam asti. Evam anya api shabdaha santi. Vina ityasya yoge dvitiya bhavati. Ubhayataha ityasya yoge dvitiya. Ityadi bhavati sa upapada dvitiya. Tritiya vibhaktirapi asmabhihi adhita. Karane tritiya vibhaktihi. Karanam sadhakatamam karanam. So that which is instrumental in achieving any action is called karana. Karana vasakat tritiya vibhaktihi bhavati. Hastena khadati, khadana kriyayam hastaha karanam, nasikaya jighrati, smells with the nose. So the nose is instrumental for the action of smelling. Bhava vachakebhya, words which indicate certain emotions. So tebhyaha api tritiya vibhaktihi bhavati. Kopena vadati, speaks angrily, with anger. Samshayena pashyati, with a doubt. So sees with a doubt, doubtfully. So all these also get tritiya vibhakti. Kartari jita tritiya vibhakti bhavati yatha balena khaditam. So punaha karmarthaka pratyayana prayoge kartruvachakat tritiya vibhakti balena phalam khaditam. Maya eva muktam ityadishu kartrivachakat tritiya vibhaktihi. Upapada tritiya api asti. Saha ityasya tat samanarthakanam cha prayoge. Saha sakam sardham samam iti chatvari avyayani tadarthakaha. Kevalasya tadarthasya satve api tritiya vibhaktihi bhavati. Sitaya vina. Vina ityasya yoge tritiya bhavati. Dvitiya, tritiya, panchami iti tisraha vibhaktayaha bhavanti. So with vina we can use three vibhaktis. Tritiya is one of them. Phalena alam, enough of fruit. Tasmin arthepi tritiya. So evam tisraha vibhaktayaha smavihi purvameva adhitaha abhyastaha cha. We have already practiced, but just to get into the groove of the class again, we will just take a bit of practice regarding these vibhaktis, using these three vibhaktis. Atra kinchi chitram asti, chitrasya adharena ete prashnaha uttaraniyaha purnam vakyam, ekam vakyam uttva. So etesham prashnanam uttaram chitrasya adharena vaktavyam. So anybody would like to volunteer? Varadarajan Mahodaya.
Yeah. Yeshara Balaha. Balaha Patam. Karoti.
Patam.
Balaha Patati.
Pathati. Ha. Pathati.
Pathati.
Pathati. Tava. Pustakam Pathati. Ha.
Balaha Pustakam Dharati.
Dharati, where?
Oh, Dharati.
Kim Dharati? Kim Drishyate? Balaha Upanetram Dharati.
Oh, yeah, sorry. Yeah.
Kidrisham
Pustakam. Pustakam. What is the word for red? I have forgotten.
Raktam.
Oh. Pustakam. Raktam Pustakam.
Pustakam.
Pustakam Raktam Asti. Pustakam Kena Grihani. Pustakam Hastena Grihnati.
Dvau Hastau.
Oh, yeah. Hastabhyam Grihnati.
Samyak. Pustakam Hastabhyam Grihnati. Samyak. So, Eshaha Balaha. Balaha Pathati. Kim Pathati? Pustakam Pathati. Athava Patam Pustake Kimasti. Iti na jani maha. Kathava Gitamva Pathahava. Athava Pustakam Pathati. Kim Dharati? Upanetram Dharati. Kidrisham Pustakam? Etat Raktam Pustakam. Saha Raktam Pustakam Pathati. Pustakam Hastabhyam Grinhati. So Balaha Karta. Pustakam Karma. Pathana Kriyayam Pustakam Karma. Dharana Kriyayam. So for wearing Upanetram Karma. Hastabhyam Grinhati Ityatra Hastau Karanam. Okay, so we've seen the three vibhaktis here. Agre. Harmandar Singh.
Esha ka. Esha bala. Kim karoti. Kim karoti. Balan kim. Katham nityati. Samyak.
Samyak. Katham nityatra. Bhava vachakasya vivaksha.
Bala katham nityati.
Dukhenava.
Harshena nityati. Harshena nityati.
Yathadrishtam bhava vachakebhyah tritiya santoshena athava harshena anandena nrityati. Bala nrityati katham anandena harshena santoshena sarvatra bhava vachakat tritiya vibhaktihi bhavati. Karmapadam na bhavati etohi nrityati iti akarmakam. So karmapadasya sambhavaha nasti. It's an intransitive verb. Into yadi nrityam karoti ityuchyate tarhi nrityam eva karma karoti iti kriya. Okay. So next. Shubha Shriram.
Namaste.
Vadatu.
Shruyate va?
Shruyate.
Ete Ashwaha.
Ashwaha.
Kim Kurvanti. Ashwaha Davanti. Katham Davanti. Ashwaha Vegena Davanti.
Vegena Davanti. Samyak. So Ete Ashwaha. Ashwaha Davanti. Ashwaha Vegena Davanti. So with speed. Iti tatrapi tutiya. Dhanyavada. So next. Subramanyam, Mahoday. Na shruyate. Hariham. There is a lot of disturbance. Lakshmi.
Namaste.
Yeshaha
kaha. Yeshaha kumshaha. Karoti. Purushaha likati. Kena likati. Ankanyena likati.
Strilingam. Ankanya.
Ankanya likati.
Ankanya likati.
Ankanya likati.
Athava lekhanya likati. Whatever. I don't know. I can't see whether it's a pencil or a pen. Either way. Strilingam. Athava ankanya likati. Athava lekhanya likati. Mastu. Iranim atra kanichana vakyani santi. Tatra kamse yadyat padamasti. Tasya padasya sukta uchita vibhaktihi chetavya. Sad vibhaktyantam padam upayujya vakyam rachaniyam. Harish. Eshaha gramaha.
Gramaha
sundaraha asti. Gramaha iti pullinge ataha sundaraha iti visheshanamapi pullinge. Gramaha sundaraha asti. Grame dvishatam janaha vasanti.
Te janaha krishikaryam
kurvanti. Dhanyavada. Malakondaya.
Hari Om. Hari Om.
Vadatu. Shruyate.
Hari Om.
Hari Om. Na shruyate. Shruyate. Mama shruyate. Vadatu.
Krushikarye saha sahayardam denohu vrushabha vrushabha cha palayanti.
Vrushabhan cha. Dithiya effect. Palayanti.
Vrushabhan cha palayanti. Grame paritaha.
Paritaha iti.
Saha. Dithiya.
Dvitiya.
Dvitiya. Gramam paritaha. Tesham. Kshetran santi.
Kshetrani santi.
Kshetrani santi. Samipe eva nadi pravahati. Nadyam. Nadyaha jalam vina satyani na rohanti. Nadyaha jalam vina jalena vina jalat vina nachyanti sasyani na rohanti.
Samyak. Itat purnam pathamaha. Eshaha gramaha. Gramaha sundaraha asti. Grame dvishatam janaha vasanti. Te janaha krishikaryam kurvanti. Krishikarye sahayyartham dhenuh vrushabhan cha palayanti. Gramam paritaha tesham kshetrani santi. Samipe eva nadi pravahati. Nadyaha jalam vina sasyani narohanti. Athava jalena विना विथौट द वाटर अर्थः स्पष्टः कस्यापि पदस्य अर्थं ज्ञातुमिच्छन्ति थिंक इट्स फेयरली सिंपल सो अग्रिमं पश्यामः महादेवन
वयं छात्राः वयं सम्यक् अध्ययनं कर्तव्यम्
कर्तव्यं वयं कर्तव्यम्
ओ अस्माभिः सम्यक् अस्माभिः सम्यक् अध्ययनं कर्तव्यम्
सम्यक् अस्माभिः कर्मणि प्रत्ययः तव्य अनीय इत्यादयः कर्मणि प्रत्ययः अतः कर्तृवाचकात् तृतीया विभक्तिः प्रयोक्तव्या अस्माभिः सम्यक् अध्ययनं कर्तव्यम्
पाठाः श्रद्धया अध्येतव्यम् पठितव्याः
पाठाः श्रद्धया पठितव्याः पाठाः पठितव्याः इति अन्वयः
गुरुसेवा करणीया
धन्यवादाः गुरुसेवा करणीया सो रिमेम्बर् आल्वेज् वित् कर्मणि प्रत्ययस् द अनियरर्तव्य विल् अग्री वित् द कर्मपद सो इट् विल् बि द सेम् लिङ्ग सेम् वचन अण्ड् द कर्तृपद विल् बि इन् तृतीय अतः वयं छात्राः अस्माभिः सम्यक् अध्ययनं कर्तव्यम् पाठाः श्रद्धया पठितव्याः अत्रापि अस्माभिः इत्येव अन्वयः अस्माभिः पाठाः श्रद्धया पठितव्याः गुरुसेवा करणीया अग्रे शारदा I think you are muted. You should unmute yourself.
छात्रेण आलस्यं न प्रदर्शनीयम्
छात्रेण अथवा छात्रैः आलस्यं न प्रदर्शनीयम्
धर्मः पालनीयः
धर्मः पालनीयः
विद्या अभ्यसनीया
विद्या अभ्यसनीया
सत्यमेव वक्तव्यम् न कदाचित् असत्यम्
सम्यक् सो सत्यमेव वक्तव्यं न कदाचित् असत्यम् सो पूर्णं पठामः वयं छात्राः अस्माभिः सम्यक् अध्ययनं कर्तव्यम् पाठाः श्रद्धया पठितव्याः गुरुसेवा करणीया छात्रैः आलस्यं न प्रदर्शनीयम् आलस्यं प्रदर्शनीयम् इति समानं लिङ्गं विभक्तिवचनं च धर्मः पालनीयः विद्या अभ्यसनीया सत्यमेव वक्तव्यं न कदाचित् असत्यम् ओके अग्रिमं पश्यामः मीनाक्षी
कैकेयी दशरथं वरद्वयं पृच्छति
दशरथं वरद्वयं पृच्छति पृच्छधातुः द्विकर्मकः अतः कं पृच्छति क kim prachati, what and whom, both of them are karma. So you have dvitiya, kaikeyi dasharatham varadvayam prachati.
Pituhu agyam palayan raha vanam gachati. Ramena saha sita lakshmanascha vanam gatavantau.
Or you can put it in lat lakara because everything is in lat. Sarvamapi lat lakara asti.
Gacchanti.
Vanam.
Vanam gacchanti.
So is it gacchanti? Sita Lakshmanascha Vanam.
Sita Lakshmanascha Vanam Gacchataha.
Gacchataha. Athava Gacchati. So, yeah. Oh, so I'll explain. Next. Agra.
Trayaha. Panchavatyam vasam kurvanti.
Dhanyadaha. So, Kaikeyi dasharatham varadvayam prachati. Pituhu agyam palayan. So, following his father's order, Ramaha vanam gacchati. Ramena saha, along with Rama. Sita lakshmanascha vanam kim bhavet kriyapadam. See, Ramasya vanagamanena saha sakshat sambandha nasti. So you cannot relate directly because Rama is Ramena saha with Rama. Pitra saha putraha shalam gacchati. Putraha shalam gacchati ityeva vakyam. Pitra saha is appendix. Satrapi Sita lakshmanascha vanam. Satrapi samvavana dvayam asti. Sita lakshmanascha vanam gacchataha iti dvivachanam because of Sita and Lakshmana. You can also say Sita Lakshmanascha Vanam Gacchati. Whenever we use cha, there is this option. Either we take individual anvaya with the kriyapada, then we say Sita Gacchati, Lakshmanascha Gacchati. Iti ataha ubhayatrapi ekavachanam prayoktum shakyam. Athava samuditasya yadvachanam. Sita Lakshmanascha Vanam Gacchataha. Ubhayatrapi sadhu. Te trayaha panchavatyam vasam kurvanti. Sharma. Hold on. Sharma Mahodaya. Na shruyate. Hari Om. Na shruyate. Rav Mahodaya, you have to unmute yourself. Na shruyate, unmute karaniyam.
Can you hear me?
Manu.
Can you hear me?
Shruyate.
Okay. Tatra Surpanaka Ramam Pasyati.
Ramaha ityasti.
Rama, okay. Tatra Surpanakaya Ramaha
Drishta ityasti. Ramaha
Pasyati.
Drishtaha. Tatra Shurpanakaya Ramaha Drishtaha.
Shurpanaka Sitam Hatva Ramam Praptum Ichati. Lakshmanaha Kopena शोर्पणकयाः नासिकाम् कर्णौ च कर्तयति.
तत्र शूर्पणखया रामः दृष्टः. दृष्ट इति कर्मणि, क्तप्रत्ययः प्रायेण सर्वदा कर्मवाचकः. अतः रामः दृष्टः, रामः कर्म, रामः दृष्टः. शूर्पणखया इति कर्तृवाचक तृतीया. शूर्पणखा सीतां हत्वा रामं प्राप्तुम् इच्छति. लक्ष्मणः कोपेन भाववाचकेभ्यः तृतीया. कोपेन शूर्पणखायाः नासिकां कर्णौ च कर्तयति. सुपूर्णमेकवारं पठामि. कैकेयी दशरथं वरद्वयं पृच्छति. पितुः आज्ञां पालयन् रामः वनं गच्छति. रामेण सह सीता लक्ष्मणश्च वनं गच्छतः. ते त्रयः पञ्चवट्यां वासं कुर्वन्ति. तत्र शूर्पणखया रामः दृष्टः. शूर्पणखा सीतां हत्वा रामं प्राप्तुम् इच्छति. लक्ष्मणः कोपेन शूर्पणखायाः नासिकां कर्णौ च कर्तयति. सो एतावता तिसृणां विभक्तीनाम् अभ्यासः कृतः. सो यु शुड् रिमेम्बर् द मेन् पायिण्ट्स् आफ् दोस् त्री विभक्तीस्. ततः चतुर्थी विभक्तिः अस्माभिः अधीता. किं किम् अधीतम् इति एकवारं पश्यामः. सम्प्रदानम्, सम्प्रदानवाचकात् चतुर्थी भवति. सम्प्रदानं नाम किम्? दानक्रियायाः विषये कस्मै ददाति इति प्रश्नस्य उत्तरम्. To whom something is given. So that is expressed in Chaturthi Vibhakti. Tasmat Chaturthi Vibhakti bhavati. Balaha mitraya pustakam dadati. Balaha dadati. Balaha pustakam dadati. Kasmai. To whom? The recipient. Mitraya pustakam dadati. Chhatra agrajayai lekhaneem. ददाति. छात्रा ददाति. छात्रा लेखनीं ददाति. अग्रजायै लेखनीं ददाति. चतुर्थी विभक्तेः रूपाण्यपि दृष्टानि. पुल्लिङ्गे बालाय बालाभ्यां बालेभ्यः. स्त्रियां बालिकायै बालिकाभ्यां बालिकाभ्यः. नपुंसके मित्राय मित्राभ्यां मित्रेभ्यः इत्येवं रूपाणि. सर्वनाम्नां चतुर्थी विभक्तिरूपाण्यपि दृष्टानि. तस्मै ताभ्यां तेभ्यः. तस्यै ताभ्यां ताभ्यः. तस्मै ताभ्यां तेभ्यः. एतस्मै एताभ्याम् एतेभ्यः. एतस्यै एताभ्याम् एतेभ्यः. एतस्मै एताभ्याम् एतेभ्यः. मह्यम् आवाभ्याम् अस्मभ्यम्. तुभ्यम् युवाभ्याम् युष्मभ्यम् इति सर्वनाम्नां चतुर्थी विभक्तिरूपाणि. इदानीम् एकम् अभ्यासं कुर्मः. एषः पुरातनः अभ्यासः. द सेम् एक्ससैज् एस् वी हेव् डन् अर्लियर्. सो लेट्स् जस्ट् स्टार्ट् वित् इट् सो देट् वी come back to the groove on what is chaturthi vibhakti. So samanah abhyasah purvam api krutah. So we'll just go through it quickly. Sarveshu vachaneshu vakyani rachaniyani. Atha raja tasmai balakaya vastram dadati. Raja tabhyam balakabhyam vastram dadati. Raja tebhyah balakebhyah vastram dadati. एवं सर्वेषु वचनेषु वाक्यं रचनीयम्. पीपल् हु वुड् लैक् टु ट्रै अदर् देन् दोस् हु हव् आन्सर्ड्. पद्मनाभन महोदय
राजा तस्यै बालिकायै शाटिकां ददाति राजा ताभ्यां बालिकाभ्यां शाटिकां ददाति राजा ताभ्यः बालिकाभ्यः शाटिकां ददाति
सम्यक् सो तस्यै ताभ्यां ताभ्यः बालिकायै बालिकाभ्यां बालिकाभ्यः शुभा भगिनी
नमस्ते
राजा
तस्मै मित्राय हारं ददाति राजा ते
ताभ्यां
मित्राभ्यां हारं ददाति राजा तेभ्यः मित्रेभ्यः हारं ददाति
सम्यक् सो तस्मै ताभ्यां तेभ्यः मित्राय मित्राभ्यां मित्रेभ्यः वरदराजन् महोदय
राजा एतस्मै विप्राय गृहं ददाति राजा एताभ्यां विप्राभ्यां गृहं ददाति राजा एतेभ्यः विप्रेभ्यः गृहं ददाति गृहम् आर् गृहाणि ददाति
गृहं दट् यु केन् चेञ्ज् आर् यु केन् डिपेण्ड्स् आन् द विवक्षा नेक्स्ट् वेङ्कटेशन् महोदय वेङ्कटेशन् महोदय वेङ्कटेशन् नटराजन्
एतस्यै कर्मकर्यै नाणकानि राजा नाणकानि ददाति राजा एताभ्यां कर्मकरिभ्यां नाणकानि ददाति राजा एताभ्यः कर्मकरिभ्यः नाणकानि ददाति
सम्यक् क्षम्यताम् राजा एतस्यै कर्मकर्यै एताभ्यां कर्मकरीभ्याम् एताभ्यः कर्मकरीभ्यः नाणकानि ददाति लक्ष्मी
राजा एतस्मै एतस्मै कुटुम्बाय अश्वः ददाति राजा एतस्मै कुटुम्बाय अश्वः ददाति अश्वान् ददाति
राजा एतस्मै कुटुम्बाय अश्वान् ददाति
राजा एताभ्यां कुटुम्बाय अश्वान् ददाति राजा एतस्मै
एतेभ्यः
कुटुम्बेभ्यः अश्वान् ददाति
सम्यक् सो एतस्मै कुटुम्बाय अश्वान् ददाति एताभ्यां कुटुम्बाभ्याम् अश्वान् ददाति एतेभ्यः कुटुम्बेभ्यः अश्वान् ददाति महादेवन् महोदय
राजा मह्यं सज्जनाय पदवीं ददाति राजा आवाभ्यां सज्जनाभ्यां पदवीं ददाति राजा अस्मभ्यः अस्मभ्यं सज्जनेभ्यः पदवीं ददाति
सम्यक् सो मह्यम् आवाभ्याम् अस्मभ्यं सज्जनाय सज्जनाभ्यां सज्जनेभ्यः शिवराम कुलकर्णी महोदय
नमो नमः श्रूयते
वा श्रूयते
राजा तुभ्यं तापस्यै चिराणि अर्थं न जानीमः चिराणि इति शब्दस्य
चीरं बार्क् गार्मेण्ट्स् द थिंग्स् वेर्
राजा युवाभ्यां तापसीभ्यां चिराणि
ददाति
चिराणि ददाति राजा युष्माभ्यां तापसीभ्य चिराणि ददाति
चिराणि ददाति
चिराणि ददाति
सो तुभ्यं युवाभ्यां युष्मभ्यं तापस्यै तापसीभ्यां तापसीभ्यः सो अत्र प्रश्नः अस्ति मे सज्जनाय इति मह्यं मे तुभ्यं ते इति रूपद्वयम् अस्ति अतः तस्यापि उपयोगः कर्तुं शक्यते अन्यः प्रश्नः अस्ति न तु विभक्तिसम्बद्धः अतः अन्ते उत्तरं वदामि किन्तु अन्ते एतत् समापयामः अन्ते उत्तरं वक्ष्यामि पुनः अन्यत्रापि चतुर्थी विभक्तेः प्रयोगः भवति सम्प्रदानं प्रथमं सम्प्रदानं तु दानक्रियायाः स्वीकर्तुः भवति अन्यविधान्यपि सम्प्रदानानि सन्ति रुचिधातोः प्रयोगे यदा रोचते इत्यस्य प्रयोगं कुर्मः तदा यः इच्छति यस्य रुचिः अस्ति ही हू इस् डिलैटेड् और् प्लीस्ड् तस्य चतुर्थी विभक्तिः भवति यथा रामाय पुष्पं रोचते द फ्लावर् डिलैट्स् राम सो रामाय पुष्पं रोचते भगिन्यै सङ्गीतं रोचते रुचि धातोः प्रयोगे यस्य इष्टं भवति तस्मात् चतुर्थी विभक्तिः भवति एवं क्रुध्यति द्रुह्यति ईर्ष्यति असूयति इत्येतेषां प्रयोगे कोपपात्रस्य सो दीस् आर् नेगेटिव् इमोशन्स् क्रुध्यति इस् टु बी आङ्ग्री टुवर्ड्स् द्रुह्यति इस् टु हार्म् सम्बडि ईर्ष्या असूया jealousy or envy so there is a subtle difference but generally used for that so when we use these words the person towards whom the anger is directed gets chaturthi krishnaya krudhyati is angry towards krishna krishnaya druhyati krishnaya irshyati krishnaya asuyati jealous or envious of krishna etc atah atrapi chaturthi vibhaktihi bhavati सो अत्रापि पुनः किञ्चित् अभ्यासस्य पुनरावर्तनं कुर्मः सो दीस् आर् अगेन् एक्सर्सैजस् विच् वी हव् सीन् अर्लियर् सो विल् जस्ट् रिपीट् देम् टु सो दट् देर् इस् अ लिङ्क् बिट्वीन् वाट् वी डू अण्ड् गोयिङ्ग् अहेड् सो पीपल् हु हव् नाट् ट्रैड् सो फार् प्लीस् वालण्टीर् मेजारिटि आफ् द क्लास् इस् सैलेण्ट् today okay sujata
yes ma'am
ha
ramaya asatyam na rochate
ramaya asatyam na rochate
arjunaya yuddham rochate na rochate
arjunaya yuddham na rochate
गिरिजायै गंगा रोचते
न रोचते
न रोचते
सर्वत्र न रोचते इत्येव गिरिजायै गंगा न रोचते सो गिरिजा डज नॉट लाइक गंगा और गंगा डज नॉट डिलाइट और प्लीज गिरिजा ओके सो नेक्स्ट विल गो क्विकली वी हैव डन दिस अर्लियर सो जस्ट रिपीट प्रैक्टिस वेंकटेश्वरन महोदय देवाः बहुवचनम्
देवाभ्यः
देवेभ्यः
देवेभ्यः असुराः न रोचते
रोचन्ते देवेभ्यः असुराः न रोचन्ते
असुरेभ्यः असुराः असुरेभ्यः सत्कार्याणि न रोचन्ते
असुरेभ्यः सत्कार्याणि न रोचन्ते
नारायणाय अधर्मः न रोचते
नारायणाय अधर्मः न रोचते सुब्रह्मण्यं महोदय न श्रूयते प्लीज चेक योर माइक
श्रूयते हा
श्रूयते
नारायणाय अधर्मः न रोचते
समाप्तम् अत्र
तेभ्यः हिंसाः न रोचते
हिंसा न
रोचते
तेभ्यः हिंसा न रोचते
अस्मभ्यम् अस्मभ्यम् आलस्यं न रोचते
अस्मभ्यम् आलस्यं न रोचते
तस्यै प्रेतकथा न रोचते
प्रेतकथाः
न रोचते
न रोचन्ते तस्यै प्रेतकथाः न रोचन्ते रिमेम्बर् द क्रियापद चेंजेस विथ व्हाट इज लाइक और नॉट लाइक सो हिंसा न रोचते प्रेतकथाः न रोचन्ते अधर्मः न रोचते सत्कार्याणि न रोचन्ते इट डज नॉट डिपेंड ऑन द वचन ऑफ हू लाइक्स और डज नॉट लाइक इट डिपेंड्स ऑन व्हाट इज लाइक और नॉट लाइक ओके सो दैट इज द कर्तृपद असत्यं न रोचते युद्धं न रोचते असुराः न रोचन्ते प्रेतकथाः न रोचन्ते हूएवर इट इज सो एतेभ्यः हिंसा न रोचते तस्मै हिंसा न रोचते मह्यं हिंसा न रोचते सो वर्ब विल नॉट चेंज विथ हू इज डिलाइटेड इट चेंजेस विथ व्हाट ओके इट्स अ स्पेशल कंस्ट्रक्शन सो द कर्तृपद इज दिस व्हाट इज लाइक हिंसा रोचते न रोचते आलस्यं रोचते न रोचते प्रेतकथाः रोचन्ते न रोचन्ते सो नेक्स्ट हरीश हरि ओम हरीश महोदय श्रूयते वदतु एताभ्यः शाकानि न रोचन्ते एते ओके इफ यू आर सेइंग एषा एते देन यस एते न रोचेते அஹம் நரோச்சதே அஹம் நரோச்சே because as I said the புருஷ and வச்சன will change with what is liked or not liked. So அஹம் நரோச்சே ஏதஸ்மை அஹம் நரோச்சே, he is not pleased with me, so he doesn't like me இத்யர்த்தே. ஏதஸ்மை அஹம் நரோச்சே, அஹம் வந்தே இவ அஹம் ரோச்சே ஆர் அஹம் நரோச்சே. ஓகே, சோ ஏதத்து ரோச்சதே இத்யஸ்ய பிரயோகஹ. ஏவம் க்ருதாதீனாம் அபி பூர்வதனஹ அப்யாஸஹ. சர்மா மகோதய,
ஸ்மிருதே,
வதத்து.
ஸ்லேஷ கோவிந்தாய உச்சதி, கோவிந்த சங்கராய திருஷ்யதி, சங்கர மகேஷாய ஈர்ஷ்யதி.
धन्यवादाः. सुरेशः गोविन्दाय क्रुध्यति, गोविन्दः शंकराय द्रुह्यति, शंकरः महेशाय ईर्ष्यति. सुजाता
மகேஷாய கிரிஜாயை அசூயதி. கிரிஜா மாதவ்யை ஈர்ஷ்யதி, மாதவி மோகனாய குஜ்யதி.
தன்யா, why am I able to unmute you? தன்யா, so can you unmute yourself please?
மோகனஹா வாண்யை அசூயதி, வாணி ரமாயை த்ருஹ்யதி, ரமா ரமேஷாய க்ருத்யதி.
தேங்க் யூ.
ஓகே,
நெக்ஸ்ட் வெங்கடேஷன். நூயத்தை வெங்கடேஷன் மகோதய, கேனாட் ஹியர் யூ.
ரமேஷ கங்காயை அசூயதி, கங்கா காயத்ரியை த்ருஹ்யதி, காயத்ரி ஆனந்தாய ஈஷ்யதி.
ஈர்ஷ்யதி, சம்யக். சோ க்ருதாதீனாம் பிரயோகே த பர்சன் டுவர்ட்ஸ் ஹூம் திஸ் இஸ் டிரெக்டட், த இமோஷன் இஸ் டிரெக்டட், வில் கெட் சதுர்த்தி. சோ த லாஸ்ட் கேஸ் ஆஃப் சதுர்த்தி விச் யூ ஆல்ரெடி சீன் வாஸ் வித் நமஹ. ஜானீமஹ நமஹ இதி பதஸ்ய யோகே ஏஷா உபபத சதுர்த்தி. நமஹ இதி பதேன சம்பந்தே சதி சதுர்த்தி விபக்தி பவதி. ராமாய நமஹ, ஹரயே நமஹ, குரவே நமஹ இத்யாதிஷு. சோ அகைன் வில் டு அ குவிக் திஸ் ஒன். சோ லுக்ஸ் லைக் த டைம் இஸ் அப். So in the next class, we will take up the next cases of Chaturthi Vibhakti. There is only some more left with Chaturthi, but today was almost fully spent in revision. So in the next one, we will finish Chaturthi Vibhakti. Namaha. Namaha ityanena yoge Chaturthi Vibhakti bhavati. So Meenakshi.
Yes.
Meenakshi.
Shri Ramaya Namaha.
Shri Ramaya Namaha.
Rama Bhadraya Namaha. Rama Chandraya Namaha.
Rao Mahalaya.
Yeah, can you hear me?
Yes.
Raghunathaya Namaha. Sita Kantaya Namaha. Hanumat Priya Ya Namaha.
Next. Raghunath Mahodaya.
Ramaya Namaha.
Rama.
Rama Namaha.
Ramayai.
Ramayai Namaha.
Lalitayai
Namaha. Gangayai Namaha.
Shubha. Unmute yourself, please.
Girijayai Namaha. Durgayai Namaha. Na drishyate agrima padam. Sitayai
Namaha. Samyak. Sitayai Namaha. Padmanabhan Mahodaya.
Saraswatyai Namaha. Parvatyai Namaha. Vanyai Namaha.
Varadarajan Mahodaya.
Lakshmai. Lakshmai Bhyaha.
Lakshmiyai. Lakshmiyai Namaha.
Lakshmai Namaha. Gauryai Namaha. Kalyai Namaha.
Next. Mahadevan.
Devebhyaha Namaha. Devyabhyaha.
Devibhyaha.
Devibhyaha Namaha. Brahmanebhyaha Namaha.
Subramanyam Mahoda.
Sajjanebhyam Namaha.
Sajjanebhyaha Namaha.
Sajjanebhyaya Namaha. Rishivarebhyam Namaha.
Rishivarebhyaha.
Rishivarebhyaha Namaha. Shastrakaraha. Shastrakarebhyaha Namaha.
Shastrakarebhyaha Namaha. Iti etavanti chaturthi vibhakti etavantaha prayogaha adhitaha. So we will stop here. So in the next one we will finish chaturthi and then move ahead with the other vibhaktis. Ketana prashnaha santi. Is Mahyam meant for Laukika and Me meant for Veda? Nasti. Mahyam Me iti ubhayam api Laukika, Vaidika, Prayogayohu ubhayohu santi. So both are present. So Me is not Vaidika. Vede bahudha drishyate chamakadishu. Anyatrapi bahutra vedeshu prayogaha asti. Kintu loke api prayogaha asti. Loke prayogaha na kartavyaha iti tu nastyeva. Lokepi shlokeshu bahutra drishyate. अतः तथा कोऽपि नियमः नास्ति. अन्यः कश्चित् प्रश्नः, शतृपदान्तस्य नकारस्य उच्चारणे नकारस्य द्वित्वं श्रूयते परन्तु लेखनसमये द्वित्वं न लिखामः, एतस्य कारणं किम्? तथा नास्ति, द्वित्वं भवति यथा पठन् इत्यत्र अग्रे यदि स्वरः अस्ति अर्थात् अच् अस्ति, पठन् अस्ति इति, तत्र नकारस्य आगमः भवति अतः नकारद्वयं, पठन् अस्ति, कुर्वन्नास्ते इत्यादिषु नकारस्य द्वित्वं भवति, द्वित्वे सति नकारद्वयं लिख्यते. वि शुड् रैट् टु नकारस् इफ् देर् इस् द्वित्व. किं भवति इदानीं पठन् अस्ति इति पृथक् यदा लिख्यते तदा तु केवलम् एकः नकारः लिख्यते, किन्तु उच्चारणसमये वस्तुतः संहिता अस्ति. सो इन् उच्चारण वि डोण्ट् गिव् अ ब्रेक्, देर् फोर् वि प्रनौन्स् इट् अस् पठन् अस्ति. वस्तुतः तत्र योजयित्वा लेखनमेव वरम्. इट् इस् बेटर् टु रैट् टुगेदर् वित् द सेकेण्ड् नकार, दट् इस् हौ वि प्रनौन्स् इट् पठन् अस्ति इत्यादिषु नकारस्य द्वित्वं भवति, लेखनीयम् अपि. इट् आल्सो रैट् इट् दट् इस् करेक्ट्. देर् इस् अ सन्धि विच् इस् काल्ड् ङमुडागम सन्धि विच् डबल्स् द नकार वेन् फालोड् बै द अच्. ओके, अन्ये प्रश्नाः सन्ति वा? एकमस्ति, ऐ वाण्ट् टु जायिन् द तिङन्ता क्लास् टुमारो. If you have registered for the Tinganta class, you will get the notification. If you have not registered, I would advise you not to join now because it has proceeded quite a bit. We have been doing that class since more than a year and it is in the final stages of the class. Only a few more classes left, probably 4 or 5 more classes. So you can still study that, there is nothing. So all the previous notes and this one is available. So if you have already listened to those notes, yeah, I will send you a link. So Shivaram Maharaj, I'll send you a link. You can use that to register yourself and you can attend the class if you have listened to the older classes of Tinganta. Okay, any prashnas antiva अग्रिमवर्गे मिलामः. चतुर्थी विभक्तिं पठामः. रामो राजमणिः सदा विजयते, रामं रमेशं भजे, रामेणाभिहता निशाचरसमूः, रामाय तस्मै नमः. रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहं, रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर. गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो. अस्तु, धन्यवादाः. वी विल् सी यू नेक्स्ट् वीक्.